एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशे सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीतयः कार्यक्रमाश्च प्रस्तुताः वर्तन्ते। संघीय संसदः संयुक्तोपवेशे सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीतयः कार्यक्रमाश्च प्रस्तुवन् पूर्वेद्युः राष्ट्रपतिः रामचन्द्र पौडेलः एकस्यैव दलस्य स्पष्टेन बहुमतेन सहितस्य सर्वकारस्य संघटनेन देशस्य कृते राजनीतिक्याः नीतिगतायाश्च स्थिरतायाः सम्प्रति ऐतिहासिक अवसरोऽस्ति इति अगदत्। राष्ट्रपतिः पौडेलः सुशासनं समृद्ध नेपालस्य आधारशिलायाः रूपेण गृहीत्वा सर्वकारेण सार्वजनिक सेवा प्रवाहे सुधारः, आर्थिक पुनरुत्थानम्, भ्रष्टाचारस्य विरूद्धे शून्य सहनशीलता, सामाजिकी उन्नतिश्च अभियानस्य रूपेण अग्रेसार्यन्ते इति प्रावोचत्। सर्वकारेण अग्रेसारितायाः शासकीय सुधार सम्बद्धायाः शतसूत्रात्मिक्याः कार्यसूच्याः पूर्णतया क्रियान्वयनं विधाय तस्मै नैरन्तर्यं प्रदास्यते इति चर्चयन् राष्ट्रपतिः पौडेलः नेपालं मध्यमायक देशस्य रूपेण उन्नेतुम् आगामिषु दशसु वर्षेषु आर्थिकीं वृद्धिं प्रतिशतं सप्तसु अंकेषु प्राप्य नवीन चरणस्य आर्थिक्यः श्रृंखलाः अग्रेसार्यन्ते इति उक्तवान्। राष्ट्रपतिना पौडेलेन भूमिसम्बद्धायाः समस्यायाः दीर्घकालिकस्य समाधानस्य कृते वास्तविकान् भूमिहीनान् जनान् परिचित्य तेषां स्थायावासस्य, भूमेः स्वामित्वस्य च सुनिश्चयनं विधास्यते इत्युक्तमस्ति। राष्ट्रिय मानवाधिकारायोगस्य सामर्थ्याभिवृद्धि करिष्यते, अधिकार दुरूपयोगानुसन्धानायोगं संस्थागतरूपेण सुदृढं विधाय अनुसन्धात्मिकीं दण्डात्मिकीं च कार्यप्रणालीं प्रभावपूर्णां विधातुं कार्यं करिष्यते, भ्रष्टाचार निवारणाङ्गत्वेन राष्ट्रिय सतर्कता केन्द्रस्य पुनः संरचना करिष्यते इति च राष्ट्रपतिः पौडेलः अभाषत। राष्ट्रपतिः पौडेलः राजनैतिक स्थिरताम् अवसरस्य रूपेण गृहीत्वा राष्ट्रस्य समग्रं रूपान्तरणं करिष्यते च इति अगदत्। नेपालस्य संविधानस्य पञ्चनवतितमायां धारायां राष्ट्रपतिना संघीय संसदः संयुक्तोपवेशे सर्वकारस्य वार्षिक नीति कार्यक्रमाणां प्रस्तुतेः व्यवस्था वर्तते। ह्य प्रस्तुतेन नीति कार्यक्रमेण निर्धारितायाः प्राथमिकतायाः आधारेण एव सर्वकारेण आगामिनः ज्येष्ठ मासस्य पञ्चदशी दिवसे आगामिनः आर्थिक वर्षस्य कृते आयव्ययिकं प्रस्तोष्यते। तत्पूर्वं ह्य उपविष्टेन मन्त्री परिषदः उपवेशेन आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमः स्वीकृतः आसन्। प्रतिनिधि सभया, राष्ट्रिय सभया च संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशे विहितस्य सम्बोधनस्य कृते राष्ट्रपतये पौडेलाय धन्यवाद प्रस्तावः पारितीकृतोऽस्ति। संघीय संसदः ह्यस्तनोपवेशे सर्वकारेण क्रियान्विताः अष्टौ अध्यादेशाः प्रस्तुताः सन्ति। प्रतिनिधिसभायाः, राष्ट्रिय सभायाश्च पृथक् पृथक् उपवेशे सर्वकारेण अध्यादेशाः प्रस्तुताः वर्तन्ते। उपवेशे सभामुख डोलप्रसाद अर्यालः प्रतिनिधिसभायां सभामुखस्य उपसभामुखस्य च अनुपस्थितौ सभायाः अध्यक्षतायै सप्तसदस्याः मनोनीतवान् आसीत्। गतविक्रमवर्षीयायाम् एसी इति माध्यमिक शिक्षा परीक्षायां प्रतिशतम् आसन्न 66 विद्यार्थिनः उत्तीर्णाः वर्तन्ते। ह्यः प्रकाशितस्य परिणामस्य अनुसारेण लक्ष्यद्वयं 84,000 षष्ट्युत्तरैकशतम् विद्यार्थिनः श्रेणीयुक्ताः वर्तन्ते। एकलक्ष्यं 64,000 सप्तत्युत्तर 500 च विद्यार्थिनः श्रेणीहीनाः सम्भूताः सन्ति इति शिक्षा सचिवः चूडामणि पौडेलः असूचयत्। श्रेणीहीनानां विद्यार्थिनां कृते पुनः श्रेणीवृद्ध्यर्थं परीक्षा भविता। गत चैत्र मासस्य 29 दिवसात् 39 दिवसं यावत् संचालितायां परीक्षायां 5,00,000 12,000 1,40,000 4,00,000 च विद्यार्थिनः सहभागिनः आसन्। सर्वोच्च न्यायालयेन विश्वविद्यालयेषु विद्यार्थी संघटनानां निरसनस्य निर्णयं तत्कालं न क्रियान्वेतुम् अल्पकालिक अन्तरिमादेश प्रदत्तोऽस्ति। न्यायाधीशस्य श्रीकान्त पौडेलस्य एकल न्यायपीठेन ह्य विश्वविद्यालय समन्वय समित्या गत चैत्र मासस्य 20 दिवसे विहितं निर्णयं तत्कालं क्रियान्वयनं न कर्तुं न कारयितुं च अल्पकालिकादेश प्रदत्तोऽस्ति। न्यायालयेन विषयेऽस्मिन् विमृष्टुम् आगामिन ज्येष्ठ मासस्य चतुर्थे दिवसे द्वौ एव पक्षौ आहू हुतौस्तः। अखिल राष्ट्रिय स्वतन्त्र विद्यार्थी युनियन नाम्नः विद्यार्थी संघटनस्य अध्यक्षेण दीपक धामी इत्यनेन सहितेन समूहेन प्रधानमन्त्री मन्त्री परिषद कार्यालयस्य विश्वविद्यालयस्य विद्यार्थी संघटनानां निरसनस्य निर्णयस्य विरूद्धे याचिका निवेदनं प्रस्तुतमासीत्। अस्य वर्षस्य वर्षायामवधौ अनुपातात् न्यूनवृष्टेः सम्भावनायां सत्यामपि तापक्रमस्य वृद्धेः चरम जलवायुज घटनायाः कारणेन वर्षायामज विपदघटनाः उच्चैः भविष्यन्तीति पूर्वानुमितम् वर्तते। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन ह्य सार्वजनिकृतायाः एतद् विक्रम वर्षीय वर्षायामज पूर्व कार्य प्रतिकार्य राष्ट्रिय कार्ययोजनायाः प्रारूपे एकोनविंशतिर्लक्षेभ्य अधिकाः जनाः प्रभाविताः भवितुं सम्भवन्तीति अनुमितम् वर्तते। राष्ट्रिय मानवाधिकार आयोगेन काष्ठमण्डप उपत्यकायाः भूम्यावासहीनानां जनानाम् अनुगमनेन प्राप्तेन तथ्येन परामर्शेन च सहितं संक्षिप्तं प्रतिवेदनं सर्वकाराय प्रेषितं वर्तते। आयोगेन उपत्यकायाः विभिन्न नदीनां तटीय क्षेत्रेषु सार्वजनिक भूम्यां वर्षेभ्य निवसतां जनानां गृहकुटीराणां सर्वकारेण भञ्जनस्य सन्दर्भे अनुगमनस्य प्रतिवेदनमेतत् पूर्वे द्युः सर्वकाराय प्रेषितं वर्तते। पशुपतिनाथस्य पाशुपतक्षेत्रस्य च महात्म्यस्य पवित्र भागवत्याः नद्यः वैशिष्ट्यस्य च प्रकाशनस्य उद्देश्येन समायोजिता बृहत् पाशुपतक्षेत्र पदयात्रा सम्पन्नास्ति।